ओके, अद्यतन सुभाषितं कः पठति?
अहं पठामि सूक्ष्म.
अस्तु, पठतु सूक्ष्म भगिनी.
वक्तृतां बिभ्रतो यस्य वक्तृतां बिभ्रतो यस्य गुह्यमेव प्रकाश्यते कथं न समानः स्यात् पुच्छेन पिशुन शुनः. वक्तृतां eloquence or way of speaking, vibrato goes astray or inconsistent, yasya whose, guhyam secret, prakashyate discloses or throws light on, katham how, samanah alike or similar, syat like, puchchah tail, pishunah wicked, shunah dog.
अर्थं जानाति वा?
लैक् विकेट् इट्स् गाट् समथिङ्ग् टु डू वित् हौ सामन् स्पीक्स् इफ् इट् इस् इन्कन्सिस्टेण्ट् इट् इस् इट्स् अ सीक्रेट् लैक् हौ सामन् स्पीक्स् इफ् इट् इस् इन्कन्सिस्टेण्ट् इट् थ्रोस् the way of speaking throws light on his on him. It's like the how the tail of a wicked dog, something like that. I'm not able to put it exactly in words.
Who reveals the secret?
Uttamam, samyak, correct. So very good attempt.
Dhanyavaad.
Yep, so there, vaktrutam, so eloquence of speaking. So a person who is not good at having self-control when they speak and choosing their words right, then they can somehow, they can disclose their secrets, you know, when you sometimes overshare. So this is similar to how a dog dog waves his tail, something like that. So how like a dog gets excited and waves his tail.
The eloquence of a person who's speaking, the way he speaks will throw light on his own character, and this character may be similar to the crooked tail of a dog which cannot be straightened. So
okay.
Yeah,
okay, yeah, so how a tail is not straight, correct. Uttama. Okay, prashna asti va? अस्तु.
काव्या भगिनी, ऐ सेंट ए विभक्ति टेबल इन एक्सेल, वर यू एबल टू रीड इट?
आई वेंट ओवर ब्रीफली, वी विल गो ओवर अगेन आफ्टर क्लास, रिमाइंड मी आफ्टर क्लास महोदय.
ओके, थैंक यू.
ओके, सो अद्यतन पाठ्यक्रमः कथाम् एव अस्ति. सो टुडे माइट बी अ शॉर्ट क्लास, आई एम नॉट श्योर, बट टुडे वी जस्ट हैव द katha to read today, and then you will have and then you can all go for winter holidays. So we will most likely be meeting January 3rd after New Year's. Okay, astu.
Astu bagana,
when will we meet, on 11th or 4th?
The third. The Sunday? The third.
Yeah, I want to January. Okay, okay, okay. Thank you.
Yep. Okay.
Do we want us to read this katha?
Yes, we're going to read now. Does mm-hmm. everyone have the story?
I have a story.
I don't have the story. Have you sent it?
Yes, it should be in the email from that I sent out yesterday and from last week.
Grahapatha. It was in the Grahapatha. Shall I read it?
No. We're just waiting for everyone to have the story with them. Okay, does anyone else not have the story? Okay, kathayah nama asti vichitra pariksha iti asti. Vichitra ityukte kim?
Unusual,
different, kimapi. Pariksha ityukte kim?
Exam.
Okay, so we'll read two paragraphs and then we'll go over the meaning. Okay, prathamam kaha patati? Okay, in the beginning, just read the first two paragraphs.
Okay, thank you. Vilapuram
na vadati chet.
Vichitra pariksha. Veerapuram nama kaschan rajyam. Tata rajyam veerasenaha nama kaschan maharajaha. Palayati sma. Dharmasagaraha yastasya mantri. Dharmasagaraha tu vayovruddhaha jnanavruddhaha cha. Atha ekada mantri dharmasagaraha vadati. Mantri padavitaha nivruttim praapya avashishtam jivanam shantya nishchintataya cha yapaniyam iti chintayan maharajam vishayam nivedituvan. Tada maharajaha mantrinaha prastavam angikritya avadat atmataya varyam varya bhavataha trayaha putra santi khalu. Teshu jeshtam mantristhane niyojiya shyami atra bhavataha sampatihi asti atra bhavataha sampati sammati asti khalu iti vadat.
Okay, uttama, dhanyavadaha bhagini. Okay, pratham asti veerapuram nama kinchana rajyam. Rajyasya nama kim?
Veerapuram.
Uttama. So tat rajyam veerasenaha nama kachana maharaja asti. Maharajasya nama kim?
Veerasenaha.
Okay, mantri nama kim?
Dharmasagaraha.
Uttama. Okay, dharmasagaraha vayo vriddha jnana vriddha cha asti. Okay, vayo vriddha ityukte kim?
He is old man by age.
Okay, he is old man by age. And jnana vriddha?
He is an old man with a lot of knowledge.
Yes, and very old by knowledge, so very wise. Uttama. So atha ekada mantri dharmasagaraha kim vadati? Mantri padavitaha. So mantri padavitaha ityukte kim?
From the post of ministership.
Post of minister.
From the post.
Vibhakti janati va?
Panchami vibhakti.
Panchami vibhakti. Uttama. Abhyasa pustake vayam paditavantah khalu grihatah vidyalayam
gatavantah.
Aam. Tadeva. Okay. Mantri पदवीतः निवृत्तिं निवृत्तिम् इत्युक्ते किम्
रिटैर्मेण्ट्
प्राप्य प्राप्यरूपं किं
ल्यबन्तरूपं
ल्यबन्तरूपं प्राप्य इत्युक्ते किं
टु गेट् इन्फर्मेशन् टु गेट्
इन्फर्मेशन्
ओब्टेन् ओब्टेन् उत्तमम्
ओके भगिनी हौ विल् वी से ल्यबन्तरूपं फार् प्राप्य हौ डु वी नो
बिकास् so apnoti and then you add the pra and it becomes prapnoti and then so since you add the visarga pra pra in front of it so prapnoti becomes prapya so the ya at the end you know is liyabantam yeah okay avashishtam avashishtam ittitte kim
remaining
uttamam jeevanam ittitte
life
okay shantya ittitte kim
peace
okay shantya roopam kim
shanta roopam
tritiya vibhakti
आं तृतीया विभक्तिः अस्ति
शान्ति शान्त्या
आं शान्त्या तृतीया विभक्तिः अस्ति सो लुक्स् लैक् ल्यबन्तरूपं पर् इस् तृतीया विभक्ति बिकास् इट् मीन्स् पीस्फुलि आं शान्ति शान्त्या इकारान्तः कर्तरि कर्तर्या लैक् दट् शान्ति शान्त्या निश्चिन्त्य निश्चिन्ततया निश्चिन्ततया इत्युक्ते किं
वितौट्
वरीस् वितौट् ओवर् थिङ्किङ्ग् किमपि तत् रूपं किम् ऐ मीन् रूपं न विभक्ति आं तृतीया विभक्ति च यापनीयं यापनीयं जानाति वा
सपोर्ट्
आम् उत्तमं शुड् शुड् बि लिव्ड् औट् ओके सो यापनीयं वि डि नाट् स्टडि दिस् रूपं बट् इस् विधिलिङ्गं सो विधिलिङ्गं रिमेम्बर् ऐ सेड् इट् मीन्स् शुड् ओर् मे सो शुड्
सपोर्ट् इस्
So what's the meaning of that sentence, Bhagini?
So basically the mantri is saying from the position of ministry after retiring I should the rest of the life that I live it should be live peacefully and without overthinking.
All right. Okay.
What does yapaniya mean?
To live
or support, no? To support the rest of his life without worries.
Yep, or to support, or should be supported, or should be lived.
It arises from vyaya, doesn't it? To live it on, you know, or something like that. To live it on, or to spend the rest of his life in peace and no worries.
Correct. Okay. Iti chintayan, thinking this. So chintayan rupam janati va?
Shatrantarupam.
Shatrantarupam. So thinking this, Maharajam vishayam निवेदितवान् इत्युक्ते किम्
इन्फार्म्ड्
रिक्वेस्टेड्
इन्फार्म्ड्
सब्मिटेड्
यस् प्रेजेन्टेड् दिस् ऐडिया ओके निवेदितवान् कालं किं
भूतकालं
महाराजं महाराजं विषयम् ओके तदा महाराजः मन्त्रिणः प्रस्तावम् अङ्गीकृत्य अवदत् सो प्रस्तावम् इत्युक्ते किम् द्वितीयविभक्ति उत्तमम् ओके अङ्गीकृत्य इत्युक्ते किम्
अग्रीड्
आम् अङ्गीकृत्य आम् लेबन्तरूपं सम्यक् ओके अवदत् अमात्यवर्य
So,
a little bit different. I never heard this one before. But I think it's addressing Mantri. The Mantri.
Amartya is a...
Amartya is minister.
It is a minister, but you know, it's a...
Respectful form.
Why person who,
Yeah, the person who advises the king for... about the...
Mantri.
Just Mantri. There are so many Mantris, isn't it? Mantri for...
ways to address a Mantri.
Amartya is something that is very important. He is the one that advises the king.
Main Mantri. They are the principal minister. Pradhana Mantri, like.
Okay. Uttam.
That's much better, That's much better, Pradhana Mantri.
I have seen the Amartya word on the Chanakya serial.
Yeah.
Which serial?
Yes.
Chanakya.
Chanakya was the Amartya to Bindusar.
Yeah, there was a Amartya. Mm-hmm.
So, Amartya.
I never heard of these.
No, Amartya is used in Telugu.
Minister is Amartya Rakshasa. They call it.
No, Telugu it is very commonly used. Amartya means Mantri.
Mantri, yes, correct.
Okay. Uttama.
I heard that word in that serial, Amartya a lot.
He is the minister.
Samyak. So, basically, hey Mantri, Amartya Varya Rupam Kim?
Sambodhana
Vibhakti.
Sambodhana Rupam. भवतः त्रयः पुत्राः सन्ति खलु भवतः विभक्ति किं
द्वितीयविभक्ति बहुवचनं
क्षम्यताम्
नॉट द्वितीय
भवतः विभक्ति किं
प्रथमा
द्वितीयविभक्ति बहुवचनं भवतः
षष्ठी विभक्ति
Shashti Vibhakti. So, your.
Shashti Vibhakti. Bhavataha Nama Kim.
Tadeva.
Oh, okay. Right.
Bhavataha Traya Putra Hasanti Kalu. Don't you have three?
Three times.
Putra Hasanti. Vachanam Kim?
Bahuvachanam.
बहुवचनं ओके तेषु ज्येष्ठं तेषु विभक्ति किं
सप्तमी
सप्तमीभक्ति वचनं किं
बहुवचनं
बहुवचनं सो तेषु ज्येष्ठम् इन्दो सन्स् ज्येष्ठं ज्येष्ठम् इत्युक्ते किं द एल्डेस्ट् ओल्डेस्ट् मन्त्रिस्थाने नियोजयिष्यामि मन्त्रिस्थाने इन् द मिनिस्टर्स् रोल् नियोजयिष्यामि फ्यूचर् फ्यूचर् टेन्स् संस्कृतं किं वदति भविष्यत्कालः अर्थं किम्
अपायिण्ट्
आम् आम् उत्तमम् अपायिण्ट् अत्र भवतः सम्मतिः अस्ति खलु. सो भवतः पुनः अस्ति भवतः विभक्ति किं षष्ठी विभक्ति योर् पर्मिशन्. सो योर् पर्मिशन् सम्मतिः पर्मिशन् अस्ति खलु. डोण्ट् ऐ हाव् योर् पर्मिशन् इति अव्यय उत्तमम् इति दो स्माल् वर्ड्स् आर् अव्यय गुड् ओके अस्तु. सो द नेक्स्ट् टु पेराग्राफ्स् कः पठति रिया भगिनी? रिया भगिनी पठति वा? अस्ति वा रिया भगिनी?
आं भगिनि.
ओके अस्तु. सो केन् यु विद् द नेक्स्ट् टु पेराग्राफ्स्?
यस् वन् मिनिट्. ओके फ्रम् महाराजस्य महाराजस्य वचनं श्रुत्वा मन्त्री
कृपया म्यूट् मध्ये स्थापयतु न वदति चेत्. अस्तु पठतु.
महाराजस्य वचनं श्रुत्वा मन्त्री उक्तवान् प्रभो ज्येष्ठस्य एव मन्त्रिस्थाने नियोजनम् इति चिन्तनं मास्तु. तेषु त्रिषु यः भवते रोचते तं मन्त्रिपदे नियोजयतु. कः मन्त्रिपदं प्राप्तुं योग्यः इति भवता सम्यक् चिन्तयित्वा
निर्णयः
चिन्तयित्वा निर्णयः करणीयः इति मम प्रार्थना भवते धैर्यवान् आवश्यकः चेत् मम ज्येष्ठपुत्रं बुद्धिशाली चेत् मम द्वितीयं पुत्रं सत्यवादी आवश्यकः चेत् च भवान् मन्त्रिपदे नियोजयितुम्
अर्हति.
त्रयम् अपि विभिन्नान् गुणान् प्राप्तवन्तः सन्ति इति. तदा महाराजः आश्चर्येण पृष्टवान् पुत्राणां स्वभावं कथं भवान् एतावत् स्पष्टं वक्तुं शक्नोति. स्वस्य एतम् अभिप्रायां किं भवान् प्रमाणीकर्तुं शक्नुयात् इति.
कुतो तदेव उत्तमम्. ओके महाराजस्य वचनं. महाराजस्य विभक्ति किं?
षष्ठी विभक्ति.
षष्ठी उत्तमम्. अर्थं किं?
Kings
vachana.
King sentences or king's speech or king's talk.
Uttam. The king's words.
Talk or speech or sentences or statements.
Tadeva. So hearing the king's vachanam, his what he said. श्रुत्वा रूपं किं? आम् त्वान्तरूपं त्वान्तरूपं वै इसन्ट् इट् ल्यबन्तरूपम् yes there's no prefix and it ends in twa uttama okay shrutva shrutva itikte kim
having heard
so what word does shrutva come from
shrunoti
so shrunoti shrutva mantri उक्तवान् कालं किं
भूतकालम्
आं भूतकालं वर्तमानकाले शब्दं किम् अस्ति
वदति
सो वदति उक्तवान् सम्यक् स्पोक् प्रभो सो सर् ओर् लोर्ड् प्रभो रूपं किम्
सम्बोधन
ओके ज्येष्ठस्य एव मन्त्रिस्थाने नियोजनम् इति चिन्तनं मास्तु सो देट् मीन्स् सो डोण्ट् थिङ्क् देट् ओन्लि द अपोइण्टेड् प्लीस् डोण्ट् थिङ्क् दिस् इन् द मिनिस्ट्रि पोजिशन् okay so the minister does not want only his oldest child to be chosen for the ministry position teshu trishu yah bhavate rochate tam mantri pade niyojayatu so teshu vibhakti kim
saptami
vachanam saptami vibhakti vachanam kim
bahuvachanam
बहुवचनं सो तेषु त्रिषु सो इन् दोस् त्री यः भवते रोचते तेषु सः सः बहुवचनं सप्तमी भवति सो तस्मिन् बिकम्स् तेषु सो तस्मिन् सप्तमी भक्ति बिकम्स् तेषु ओके यः भवति यस् करेक्ट् सो सिन्स् इस् the number
it has to follow
with the word before teshu mean in them
in those three okay uttam okay bhavate vibhakti kim
chaturthi vibhakti
uttam bhavate rochate ओके रोचते किञ्चित् भिन्नम् अस्ति रोचते आत्मनेपदे अस्ति सो बिकास् वन् देवर् डर्स् अ वर्ड् रोचते देन् यु आल्वेस् यूस् द चतुर्थि विभक्ति फोर् देट्
सो एकं प्रश्नं सो भवते मीन्स् टु देम् राइट् टु हिम्
फोर् यु ओके So for you, whatever you like, tam mantri pade niyojayatu. So tam vibhakti kim?
Dvitiya.
Dvitiya vibhakti. Good. So saha becomes tam. Mantri pade niyojayatu. Niyojayatu rupam kim?
Empires.
Lakaraha kim? Niyojayatu lakaraha kim?
Bhavishyatkara. Lat.
Na. न कालः किं लकारः लोट्लकारः ऐ मीन् रिक्वेस्ट् ओर् कमाण्ड् ओके सो लोट्लकारः इस् for command or request lat lakarah is a present tense okay
And what is past tense?
Lang lakaraha, I think. Lang lakaraha. And future is...
You said no.
Lut.
Yeah, lut lakaraha, I think. Okay, lot lakaraha is command. ओके अस्तु ओके न भवति चेत् कृपया म्यूट् मध्ये स्थापयतु अस्तु भवती रोचते तं मन्त्रिपदे नियोजयतु सो रिमेम्बर् वन् यु वर्ड् वन् यूस् द वर्ड् रोचते यु हेव् टु यूस् चतुर्थीविभक्ति ओके कः मन्त्रिपदं प्राप्तुं योग्यः इति भवता सम्यक् चिन्तयित्वा निर्णयः and then it goes on so kaha mantri padam who should be in the mantri padam in the position of a ministry praptum yogyah so praptum rupam kim
tumunta rupam
tumuntam so if so far we've seen all four rupam the 11th
what rupam what does rochate mean
like or interest ichchati So, so far we've seen Lyabanta Rupam, Kshatranta Rupam, Tuanta Rupam, and now we've seen Tumunta. So, Tumanta Rupam, Praptum. And then Yogyaha, Yogyaha iti pekim?
Suitable,
eligible, worthy.
Qualified, came up, Uttam. Iti Bhavata, Bhavata Vibhakti kim?
Ritya Vibhakti.
तृतीया विभक्ति वी लर्न् सो तृतीया विभक्ति भवता भवता भवान् अनन् भवता सम्यक् चिन्तयित्वा सो दस् आल्सो स्वान्तरूपम् आफ्टर् थिङ्किङ्ग् निर्णयः निर्णयः इत्युक्ते किं
डिसिशन्
करणीयः करणीयः इत्युक्ते किं
यु विल् डु यु
decision
should take should do that's also willing
so bhavata means by you
bhavata is
by you
no shakti your agreement
no
bhavata is atitya vibhakti
vibhakti
yeah by you सम्यक् चिन्तयित्वा निर्णयः करणीयः इति मम प्रार्थना मम विभक्ति किं
षष्टि
अस्ति प्रथमाविभक्ते किमस्ति अहम् एकं मम मम प्रार्थना मै विश् भवते अयं चतुर्थी विभक्ति धैर्यवान् आवश्यकः चेत् मम ज्येष्ठपुत्रम् सो इफ् यु नीड् समन् हू इस् ब्रेव् देन् यु हेव् मै ओल्डेस्ट् सन् कृपया म्यूट् मध्ये स्थापयतु धन्यवादः सो इफ् यु नीड् समन् हू इस् ब्रेव् धैर्यवान् देन् यु केन् चूस् मै ओल्डेस्ट् सन् बुद्धिशाली if you need someone you need who is smart or wise buddhishali chet then my second son satyavadi so satyavadi is someone who tells the truth if you need someone who tells the truth then my third son iti bhavan mantri pade niyojayitum arhati so these are the people that deserve to be in the in the ministry position if you are adding trayaha api vibhinnam vibhinnan gunan praptavantah santi iti so all three are they have different or various characters
qualities
can be obtained iti so like this is what he said ओके विभिन्नान् गुणान् विभक्ति कः जानाति
द्वितीया विभक्ति
उत्तमं
बहुवचनं
आम् आम् द्वितीया विभक्ति बहुवचनं गुड् ओके तदा महाराजः आश्चर्येण ओके कृपया म्यूट् मध्ये स्थापयतु उत्तमं तदा महाराजः आश्चर्येण पृष्टवान् सो देन् द किङ्ग् आस्ट् सर्प्रैसिङ्ग्लि आश्चर्य नाट् सर्प्रैसिङ्ग्लि लैक् वित् ओके सर्प्रैसिङ्ग्लि ओर् वित् इण्ट्रेस्ट् ओर् शाकिङ्ग्लि Good.
Is it Tritiya or Saptami?
Tritiya Vibhakti.
Tritiya
Vibhakti. Yeah.
Ashcharyena. Tritiya Vibhakti.
With Ashcharyam, Devena, Vanena.
Yep, correct. So Ashcharyena Prishtavan, he asked, Bhutakalamasi, Putranam Swabhavam Katham Bhavan Etavat Spashtam Vaktum Shaknoti. So Putranam, Vibhakti Kim? षष्टि विभक्ति बहुवचनं आम् षष्टि विभक्ति
बहुवचनम्
अस्ति सम्यक् ओके पुत्राणां सो द सन्स् स्वभावं दीस् केरेक्टर्स् आफ् दीस् सन्स् हौ डु यु नो सो क्लियर्लि हौ डु यु हौ केन् यु से सो क्लियर्लि How are you able to say so clearly? Iti is the question of the king. So spashtam means clearly.
Bhagini?
Yep.
What is putram is a putram is a base word for putrana.
Putraha.
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 Yep. Pullingam.
Putraha is a pullinga, right?
Pullingam.
And okay, Sashti Vibhakti Bahuvachan.
Correct. Okay. Swasya etam abhiprayam kim bhavan pramani kartum shaknuyat iti. Okay. Swasya
ekam prashnam.
Vaktum avde.
Vaktum is tumun, right? Tumun.
Tumun.
Okay.
Swastya is Shashti Vibhakti. The
it is mine.
Yes.
Yourself.
Yep. It means yourself. I'm thinking of the Prathama Vibhakti part.
Swaha. I don't know there is such a word.
Swaha is right.
Swaha va.
It's a pronoun. Swasya is genitive singular of swa.
Okay. So swaha.
Swasya.
Swasya, your etam abhiprayam. Your opinion kim bhavan pramani kartum shakniyat how can I check this or how can I validate this iti okay shakniyat again is vidhilingam okay
ekam prashnam so instead of saying kim can we say kimartham bhavan pramani kartum shaknuyat
no because kimartham means why should we validate this is you can say katham bhavan pramani kartum shaknuyat so okay. How can we validate but not why
okay
because he wants to know how do you know these characters of your son so clearly
okay so this is how and not why kim is yeah. How
Okay. Kim is
Bhagini, can swasya be substituted by bhavatah?
Yep, mm-hmm. Correct.
They are synonymous, right? Okay.
Yep. Okay. Kuto na. So, kuto na means why not? We didn't read that part yet. Okay. So, who wants to read the next two paragraphs? Kaha vadati? Kaha patati?
I can read if you can hear me.
I can hear you.
Okay. Kuto na aham mama putranam krite ekam suchanam dadami. Kaha katham tam suchanam suchanam palayishyati iti bhavan palayishyati iti bhavan parishilayatu tataha ekaikasya api swabhavah bhavata swayam jnayate iti uktavan mantri aparasmin dine mantri trin putran api ayuhya
ahuya
putraha bhavadbhihi ekam pramukham karyam karaniyam asti jagaru kataya mama vachanani shrunvantu rajo dhyane ekam mahatvapurnam paṭhala puṣpa sasyam asti tasmāt sasyāt bhavantah trayah api ekaikam puṣpam ānayantu etat bahu kashtakaram karyam yatah tasmat sasyat puṣpasya utpāṭhanam niṣiddham puṣpasya utpāṭhanam baṭaihi drishtam cet te utpāṭa itaram gṛhṇanti yadi bhavantah vai baṭaihi grihitāḥ sihu tarhi bhavadbhihi mukamātram upayujya tatah bahih
agantavyam
anyasya kasyapi upayogah na karaniyah iti uktavan
uttam bahu uttam mahodayah uttam okay pashyamah kuto na why not aham mama putranam krite ekam suchanam dadami so for the sons I have one announcement. I will give one announcement or pariksha dadami aham. I'll give one pariksha. Kaha katham tam suchanam palayishyati iti bhavan parishilayatu. So whoever protects the task I give or completes it correctly.
Instruction.
Obey the instruction.
yes, obeys the instruction. Iti bhavan parishilayatu. So choose from, you can choose from that. Okay, tam suchanam. So tam vibhakti kim?
Ditiya.
बहुवचनं न एकवचनम् एव एकवचनं लिङ्गं किं
स्त्रीलिङ्गं
स्त्रीलिङ्गं सो सा बिकम्स् तां तां सूचनां सूचना सूचनां ओके ततः फ्रम् देट् एकैकस्य अपि स्वभावः भवता स्वयं ज्ञायते सो फ्रम् देट् पञ्चमविभक्तिः अस्ति ततः एकैकस्य सो एकः एकः सो एकः प्लस् एकस्य टुगेदर् इस् एकैकस्य अपि स्वभावः भवता स्वयं ज्ञायते सो फ्रम् देट् यु विल् नो एव्रिवन्स् केरेक्टर् वदतु महोदय
वै डस् यु नाट् यूस् तम् इन्स्टेड् आफ् ताम्
ओके नम्बर् सूचनां सूचनां स्त्रीलिङ्गम्
ओके यस्
तां सूचनां
एकैकस्य मीन्स् इण्डिविजुवल् एकैक
यस् करेक्ट् ओके ओके अपरस्मिन् दिने अनदर् डे मन्त्री त्रीन् पुत्रान् अपि आहूय सो त्रीन् पुत्रान् विभक्ति किं
द्वितीयाविभक्ति
आं द्वितीयाविभक्ति वचनं
बहुवचनं
बहुवचनं सम्यक् द्वितीयाविभक्ति बहुवचनमस्ति अपि आहूय आहूय रूपं किं
ल्यबन्तरूपं
ल्यबन्तरूपम् इन्वैटेड्
इन्वैटेड् ओके वट् इस् द आक्चुवल् वर्ड् आफ् आहूय
आह्वानम्
आह्वयति
आह्वयति आह्वयति क्रियापदमस्ति आह्वयति ओके पुत्राः भवद्भिः भवद्भिः विभक्ति किं
सप्तमी
तृतीयाविभक्ति बहुवचनं
आं तृतीयाविभक्ति बहुवचनं रिमेम्बर् वि लर्न्ड् तृतीयाविभक्ति बहुवचनम् अस्ति भवद्भिः एकं प्रमुखं कार्यं करणीयम् अस्ति सो देर् इस् अ टास्क् फोर् यु टु बिकम् लीडर्
इम्पार्टेण्ट् टास्क्
सो इम्पार्टेण्ट् टास्क् अस्ति
No, एकं प्रश्नं सो भवद्भिः तृतीया बै यु तृतीया बहुवचनं सो दीस् टास्क् बै यु नाट् फार् यु बिकास् फार् यु विल् बिकम् चतुर्थी भवद्भ्यः
आम् correct okay so well when you say it in English it kind of changes a little bit but that's right so by you one important task should be done okay jagarukataya jagarukataya tritiya vibhakti asti so very carefully mama tritiya vibhakti madhye sthapayatu navadite इन्दु भगिनी कृपया मीट् मध्ये स्थापयतु ओके वचनानि श्रुत्वन्तु सो लिसन् टु दीस् टु वाट् ऐ एम् सेयिङ्ग् केर्फुलि राज्योद्याने सो राज्योद्याने इस् अ काम्बिनेशन्
प्लीस्
ओ क्षम्यताम् ओके So, Rajodhyane is combination of two words, Rajaha plus Udhyane.
Gunatandhi?
Tandhi, no?
Yes. So, Rajodhyane. So, the king's garden, or even Rajam Udhyane. राजम् उद्याने राजः उद्याने एकं महत्त्वपूर्ण पाटलपुष्पसस्यम् अस्ति. सो अ वेरि स्पेशल् पाटलपुष्पं पुष्पसस्यं. सो ऐ थिङ्क् इट्स् अ रोस् रोस् ट्री.
रोस्
ओके. सो सस्यं
राजोद्याने सप्तमी
सप्तमी. So there's a small rose tree plant asti, like a bush. Tasmat sasyat. So tasmat sasyat is panchami vibhakti. Panchami vibhakti. So from that bush bhavantah trayah api ekaikam pushpam anayantu. So you all bring one flower each. Okay, etat bahu kashtakaram karyam. This is a very difficult work. Yatah tasmat sasyat pushpasya utpatanam nishiddam. So because yatah means because pulling out the bush is forbidden. You can't pull out the plant or the weed. Kim api.
Is it plucking or pulling? Plucking.
Okay.
Plucking the flower is prohibited.
Okay. Plucking the flower is not allowed. Pushpasya utpatanam bataihi drushtam chet te उत्पाटितारं गृह्णन्ति. सो बटैः बटैः विभक्ति किं?
द्वितीया विभक्ति बहुवचनम्.
उत्तमम्. आ तृतीया विभक्ति बहुवचनम्. सो इफ् दे सी यू पुलिङ्ग् औट् द फ्लवर् देन् दे विल्
क्याप्चर्.
यप् क्याप्चर् यू. ओके. यदि भवन्तः भटैः गृहीताः स्युः तर्हि भवद्भिः मुखमात्रम् उपयुज्य ततः बहिः आगन्तव्यम्. सो इफ् द hold on to you or drive you out, then bhavadbihi mukhamatram. So by the use of your mouth only, by using only your mouth, come outside. So that is the task. Anyasya kasyapi upayogah na karniyah. So you should not use anything else. So only you can use your mouth and escape. Iti uktavan.
Kavya Bhagini, one question. Again, I just, bataihi is pluck?
No, bataihi is shoulder. Soldier.
Soldier, okay. Okay.
Pluck is utpatanam.
Thank you.
Okay, na valti chit kripya gitma desa peyatu. It's echoing. Okay. Okay. Prashnam asti va? That was a long paragraph. Are there any questions? Okay. So who wants to read the next three paragraphs?
Because I can say.
Okay. Patatu, Narasimha Mahodaya.
Trayaha api tasya vachanam angikrutya pitaram नमस्कृत्य ततः निर्गतवन्तः. महाराजः समीपितः एतत् सर्वे प्रश्न आसीत्. सायङ्कालः अभवत्. त्रयः अपि रहस्येन उद्यानं प्रविष्टवन्तः. पाटलसस्यस्य समीपं गतवन्तः च पुष्पस्य स्वीकरणानुक्षणम् एव रक्षकभटः त्रीन् अपि गृहीतवन्तः ज्येष्ठः उच्चैः आक्रन्दनं कुर्वन् एकस्य भटस्य हस्तं दन्तैः दृष्टवान् तस्य दंशनात् भीतः भटः हस्तं त्यक्तवान् एषः एव सुसमयः इति मत्वा ज्येष्ठपुत्रः ततः पलायनं कृतवान्.
उत्तमम्. ओके, त्रयः अपि तस्य वचनम् अङ्गीकृत्य पितरं नमस्कृत्य ततः निर्गतवन्तः. ओके, सो द त्री सन्स् त्रयः पुत्राः अपि तस्य वचनं. सो आफ्टर् हियरिङ्ग् वाट् द मन्त्री सेट् अङ्गीकृत्य, सो अक्सेप्टिङ्ग् दिस् और् एक्नालेजिङ्ग् दिस् पितरं नमस्कृत्य, सो बोत् देर् आर् ल्यबन्तरूपम् अङ्गीकृत्य एण्ड् नमस्कृत्य. ततः निर्गतवन्तः, सो दे लेफ्ट् द प्लेस्. महाराजः समीपतः एव एतत् सर्वं पश्यन् आसीत्. सो द किङ्ग् वास् नियर् बै लिसनिङ्ग् टु वाट् वास् गोयिङ्ग् आन् और् वाचिङ्ग् वाट् वास् गोयिङ्ग् आन्. सो पश्यन् रूपं किं?
शत्रन्तरूपम्.
आं, शत्रन्तरूपं. निर्गतवन्तः इस् आल्सो निर्गतवन्तः भूतकालं, भूतकालं निर्गतवन्तः भूतकालम्. ओके, बहुवचनं. ओके, सायङ्कालः अभवत्, सो बिकेम् ईवनिङ्ग्. त्रयः अपि रहस्येन उद्यानं प्रविष्टवन्तः. सो द त्री secretly they went to the or entered the garden. Okay, patalasasyasya samipam gatavantah cha, so they came nearby the rose tree. Pushpasya svikaranaknukshanam eva rakshabataah treen api grihitavantah. So one of them tried to, well, when they tried to get the pushpam, the flower, three rakshaka bataha, three soldiers came and held on to them. Okay, astu jeshtah uchaihi akrandanam kurvan. So akrandanam ittikte kim? Cried out. Good. Shout, cried out, kimapi. Kurvan. So kurvan rupam kim?
Bhutakalam. Shatrantarupam bhutakalam.
Shatrantarupam.
Shatrantam. So while crying out, ekasya batasya hastam dantaihi dashtavan. So dashtavan isikte kim?
Bite off.
Bite. So using his teeth, he bit the soldier. So now that's using his mukham, right? That's using his face or mouth. Tasya damshanat bhitaha bhataha hastam tyaktavan. From what happened, from being, he got scared, the soldier got scared and quickly
left the,
gave up their hands, they put their hands up.
Yep, hastam tyaktavan. He I can't think of the right word, but yeah, his hands flew up,
released
his hands. Good. Eshah eva susamayah iti matva jeshta putrah ततः पलायनं कृतवान् सो थिङ्किङ्ग् दिस् द करेक्ट् टैम् द ओल्डेस्ट् सन् पलायनं कृतवान् एस्केप् ओके सो ज्येष्ठपुत्रः कथम् अस्ति वट् डिड् द मन्त्री डिस्क्रैब् एस् अ ज्येष्ठपुत्रः संस्कृते धैर्यवान् इति उक्तवान् मन्त्री ओके ओके द्वितीयं किं करोति कः पठति
अहं पठामि वा
अस्तु पठतु महोदय
द्वितीयैः तु पुष्पं मुखे स्थापयित्वा किमपि कृतवन्तः किमपि न प्रवृत्तम् इव अभिनयनं ततः बहिः गतवान् किन्तु तृतीयशान्तरूपेण तथैव स्थितवान् रक्षकभटः तं महाराजस्य समक्षं नीतवन्तः सः महाराजं नमस्कृत्य उक्तवान् प्रभो तस्मात् सस्यात् पुष्पस्य उत्पाटनं निषिद्धम् अस्ति इति अहं जानामि परन्तु तत् कार्यं कर्तुं परमविवेकी भवतः मन्त्री एव उक्तवान् तस्य विशेषकारणं स्यात् एव अतः तस्मात् सस्यात् एकं पुष्पं दातव्यम् इति विनयेन प्रार्थय इति तावति काले तत्र
द्वितीयः तु पुष्पं मुखे ओके मीट् मध्ये स्थापयतु धन्यवादः द्वितीयः तु पुष्पं मुखे स्थापयित्वा सो द सेकेण्ड् वन् ही केप्ट् द फ्लवर् इन् हिस् माौत् स्थापयित्वा किमपि न प्रवृत्तम् इव एव सो एव्रि वन् वास् बिसि ओर् नो वन् इस् वाचिङ्ग् इति थिङ्किङ्ग् दिस् अभिनयन् ततः बहिः गतवान् सो डूयिङ्ग् दिस् ही वेण्ट् औट्सैड् ओके द्वितीयः पुत्रः कथम् अस्ति सो वट् इस् हिस् केरेक्टर्
बुद्धिमान् इण्टेलिजेण्ट्
बुद्धिमान् बुद्धिशाली उत्तमं सो ही वेरि स्मार्ट्लि थिङ्किङ्ग् देट् एव्रिवन् इस् बिसि ही टुक् द रोल्स् इन् हिस् माौत् एण्ड् लेफ्ट् ओके किन्तु तृतीयः द थर्ड् वन् शान्तरूपेण
भगिनि किं स्क्रोल्
ओ क्षम्यताम् ओके किन्तु तृतीयः द थर्ड् वन् शान्तरूपेण तथैव स्थितवान् शान्तरूपेण विभक्ति किं तृतीया विभक्ति सो क्वायट्लि तथैव ततः एव तथैव स्थितवान् सो हि सत् क्वायट्लि पीस्फुलि रक्षकभटाः तं महाराजस्य समक्षं नीतवन्तः सो द सोल्जर्स् टुक् हिम् इन् फ्रण्ट् आफ् द किङ्ग् सः महाराजं नमस्कृत्य उक्तवान् सो हि बौ डौन् टु द किङ्ग् एण्ड् सेड् प्रभो मीट् मध्ये स्थापयतु ओके प्रभो तस्मात् सस्यात् पुष्पस्य उत्पाटनं निषिद्धम् अस्ति इति अहं जानामि सो ऐ नो देट् ऐ एम् नाट् अलौड् टु पुल् औट् द फ्लवर् इत् ऐ नो दिस् परन्तु तत् कार्यं कर्तुं परमविवेकी भवतः मन्त्री एव उक्तवान् सो बट् दिस् इस् अ वेरि डिफिकल्ट् टास्क् इति Your minister said already, Tasya Vishesha Karanam Syat Eva. So this is the reason only. Ataha Tasmat Sasyat Ekam Pushpam Datavyam Iti Vinayena Prathaye Iti. So I humbly ओके अतः तस्मात् सस्यात्
तस्मात् इस् पञ्चमी राइट
यस सो सो फ्रॉम दैट ट्री एकं पुष्पं दातव्यम् Oh, and then, okay, then he asks with humility, can you bring one flower, iti? Okay, so...
Can you give me one flower?
Yep, can you give? So that's how he uses his knot. He asks respectfully by using his knot. Okay, so how is the third one's character, Katamasi? गुणः
सत्यशाली
आम् सत्यवादी अस्ति
उत्तमम्
ओके ओके सो आर् एनी क्वेश्चन् सो फार्
वन् क्वेश्चन् सस्यात्
सस्यात् मीन्स् फ्रम् द बश् सो पञ्चमी भक्ति Okay, are there any other questions?
From the bush, you said?
Yes. From the bush. Okay, so who wants to read the last two paragraphs?
Shall I finish it off?
let's see if anyone who has not read before wants to read. Okay. Who did not read? Chitra Bhagini, did you read already?
I think Sheila Bhagini wanted to read.
Okay. So who wants to read the last two paragraphs? Idani Madhatu?
I can patami.
Okay, Indu Bhagini Patatu.
Right. Tada Maharaja सन्तोषेण स्मितवदनः तावती काले तत्र आगतः मन्त्री महाराजम् उद्दिश्य प्रभो एतत् सर्व दृष्टवान् खलु भवान् त्रयः अपि मुख एव उपयोगं कृतवन्तः किन्तु तेषां स्वभावानुसारं तेषां व्यवहारः आसीत् अपरेण बुद्धेः उपयोगार्थं तृतीयेन च सत्यपरिपालनार्थं तस्य उपयोगः कृतः इति उक्तवान् तदा महाराज
चित्रा भगिनी अन्तिमं पेराग्राफ् पठति वा
आं भगिनि तदा महाराजः सन्तोषेण स्मितवादनः सन् उक्तवान् अमात्यवर्य भवतः त्रयः अपि पुत्राः श्रेष्ठाः एव ज्येष्ठपुत्रं सैन्याधिकारीरूपेण द्वितीयं मम आप्तसहायकत्वेन विवेकशालिनं सत्यशीलं तृतीयं पुत्रम् एव मन्त्रित्वेन च नियोजयिष्यामि इति
सम्यक् उत्तमम् ओके तावति सो तावत् प्लस् इति तावती काले तत्र आगतः मन्त्री महाराजम् उद्दिश्य ओके सो एट् दट् टैम् द मन्त्री केम् मन्त्री लुक्ड् एट् द किङ्ग् एण्ड् सेड् प्रभो एतत् सर्वं दृष्टवान् खलु भवान् यु सा आल् आफ् दीस् यु सा एव्रिथिङ्ग् रैट् त्रयः अपि मुखमात्रस्य एव उपयोगं कृतवन्तः आल् त्री यूस् देर् मौत् ओन्ली किन्तु बट् तेषां स्वभावानुसारं तेषां व्यवहारः आसीत् बट् थ्रू दीस् इन् दीस् त्री सन्स् यु केन् सी देर् केरेक्टर्स्
Of these three sons or in these three? Tesham, Saptami, Bahuvachanam. Sorry, Shashti Bahuvachanam. Right?
No, Tesham. No.
Yeah. Shashti Bahuvachanam.
Shashti Bahuvachanam asti. So of these sons, you can see there are different characters. Ekena himsartham aparena buddhehe upayogartham tritiyena cha satyaparipalanartham. So ekena himsartham means one through aggression, aparena buddhehe upayogartham, the other through his intellect, using his brain, tritiyena cha satyaparipalanartham. So you protecting his word or keeping the truth. Tasya upayogaha kritaha. So he used, this is what he used, iti uktavan. So this is, he summarizes the three ways, the mantri summarizes the three ways his sons escaped or came out. Tada maharajaha santoshena smitavadanaha san uktavan. So that time the king, smiling happily, said, amatyavarya bhavatah trayah apsi putrah shreshtah eva. So your sons, all three, are all the best. Deshaputram sainyadikari rupena. So sainyadikari rupena itukte kim?
Tritiya.
Itukte kim? Meaning?
The leader of the army.
Commander.
Sainyah.
Chief of army. Senadhipati.
Correct. Leader of the army. Because you need aggression for that. Dvitiyam mama apta sahayakatvena. Apta sahayakatvena itikte kim?
Advisor.
Advise me personally.
Call advisor.
Advisor. Vivekashalinam satyashalim tritiyam putram. So Vivekashalinam satyashalim tritiyam putram eva mantritvena. So only the third one, who is very
truthful
will be the mantri. Cha niyoja ishyami, I will appoint iti. Oh,
what does son mean?
Smitavadanah san uttavan. San, I think it might be like, I was thinking that it was a short version of asan, but
it's being.
Being, okay.
Being. It's satrantap sat.
Okay, satrantam.
Okay.
Okay, uttamam. Okay, kutra api prashnam asti va? Are there any questions anywhere?
Bhagini, I have a question. In one of the paragraph, there is a word called syuhu. Kimartam syuhu?
Syuhu is it's vidilingam, so it means probably. So asti is syuhu. Or, yeah, like if it happens. Okay, any other questions?